इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणः नरेन्द्र मोदिनः G7 सम्मेलन सम्बद्धा इटली यात्रा सम्पन्ना। प्रधानमन्त्रिणा प्रोक्तं यत् तेन विश्वमञ्चे भारतीया दृष्टिः स्थापिता। उत्तराखण्डे एकस्यां घटनायां यात्रीवाहनस्य पतनात् 13 यात्रिणः मृताः। छत्तीसगढ़स्य बस्सरी सुरक्षाबलैः सह संघर्षे 8 उग्रवादिनः मृताः। युक्रेन युद्धे शान्ति प्रक्रियायाः आधारस्य सुनिश्चयं कर्तुम् अद्य स्विट्जरलैंड देशे अन्ताराष्ट्रिय सम्मेलनम्। अपि च क्रीडायाम् आईसीसी इत्यस्यां पुरुषाणां 20-20 विश्व चषक क्रिकेट प्रतिस्पर्धायाम् अद्य सायं फ्लोरिडा नगरस्य सेंट्रल ब्रोवार्ड पार्क क्रीडांगणे अंतिम समूहस्य स्पर्धायां भारतं कनाडा दलं सम्मुखी करिष्यति। इदानीं वार्ताः विस्तरेण। प्रधानमन्त्रिणः नरेन्द्र मोदिनः G7 सम्मेलन सम्बद्धा इटली यात्रा सम्पन्ना। प्रधानमन्त्रिणा प्रोक्तं यत् तेन विश्वमञ्चे भारतस्य दृष्टिः स्थापिता। प्रधानमन्त्री नरेन्द्र मोदी इटलीतः अद्य प्रातः नवदिल्लीं प्रत्यावर्तितवान्। सः स्वीयां यात्रां सार्थिकाम् उक्तवान्। एकस्मिन् सामाजिक जनसंचार माध्यमेन श्रीमोदी न्यगदत् यत् इदम् एकं महत्वपूर्णं G7 शिखर सम्मेलनम् आसीत् यत्र तेन वैश्विक मञ्चे भारतीया दृष्टिः प्रस्तुता। अष्टादश्याः लोकसभायाः प्रथमं संसद सत्रम् अस्य मासस्य 24 दिनांकात् समारप्स्यते। संसदीय कार्य मंत्री किरेन रिजिजुः अद्य संसूचितवान् यत् प्रशासनं संसदः कार्याचरणं उचित विधिना संचालयितुं सर्वैः राजनीतिक दलैः सांसदैः सह कार्य निष्पादनाय सज्जं वर्तते। असौ निगदितवान् यत् संसदः एतस्मिन् प्रथमे सत्रे नवनिर्वाचितानां सांसदानां शपथवचनं लोकसभाध्यक्षनिर्वाचनं तदनु संसदः उभयोः सदनयोः उपवेशने राष्ट्रपतेः अभिभाषणं भविष्यति। केन्द्रीय कृषि मंत्री शिवराज सिंह चौहानः प्रोदीरितवान् यत् प्रधानमन्त्री नरेन्द्र मोदी जून मासस्य 18 दिनांके किसान सम्मान निधि योजनायाः अन्तर्गतं 3,00,000+ कृषकाणां वित्तकोषे भूयोपि 20,000 कोटि रूप्यकाणि हस्तांतरितं करिष्यति। नवदिल्ल्यां श्री चौहानः अकथयत् यत् व्यतीतेषु 10 वर्षेषु साम्प्रतं यावत् 11,00,000 कृषकाणां वित्तकोषेषु 3,00,000 कोटि रूप्यकाणां सम्प्रेषणम् अभवत्। असौ जून मासस्य 18 दिनांके प्रधानमन्त्रिणः कार्यक्रमेऽस्मिन् सम्मेलनं भवितुं सर्वान् मुख्यमन्त्रिणः पत्रम् लिखितवान्। उत्तराखण्डे एकस्यां घटनायां 13 यात्रिणः मृताः। रुद्रप्रयाग जनपदे बद्रीनाथ राष्ट्रिय राजमार्गे रैन्तौल्याः समीपे यात्रीवाहनं कर्ते पतितवत्। अनेन 13 जनाः मृताः। 7 यात्रिणः गंभीर रूपेण आहताः। सूचनानुसारेण वाहने 26 श्रद्धालवः आरूढाः आसन्। सुरक्षोद्धार अभियानं प्रचलति। राज्यस्य राज्यपालः गुरमीत सिंहः, मुख्यमंत्री पुष्कर सिंह धामी, केन्द्रीय गृहमंत्री अमित शाहश्च एते सर्वेपि घटनां प्रति दुःखं प्रकटितवन्तः। छत्तीसगढ़स्य सुरक्षाबलैः सह संघर्षे अष्टौ उग्रवादिनः मृताः। अद्य छत्तीसगढ़स्य बस्तर संभागे सुरक्षाबलैः सह संघर्षे अष्टौ उग्रवादिनः मृताः, तत्रैव द्वौ सुरक्षिणौ अपि आहतौ संजातौ इति सूचना अस्ति। बस्तर संभागस्य अबूझ माड़ क्षेत्रे उग्रवादिनाम् उपस्थितेः विषये सूचनाधारेण भारत तिब्बत सीमा आरक्षिबलेन, जनपद आरक्षिबलेन, विशेष कार्यबलेन च संयुक्त रूपेण अन्वेषणाभियानम् आरब्धम्। अस्मिन् क्षेत्रे अन्वेषण कार्यक्रमः प्रचलति। घटना विषये विस्तृता सूचना प्रतीक्षिता अस्ति। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। समम् एव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। यूक्रेन युद्धे शांति प्रक्रियायाः आधारं सुनिश्चयं कर्तुम् अद्य स्विट्जरलैंड देशे अन्ताराष्ट्रिय सम्मेलनं भविष्यति। एतस्मिन् सम्मेलने प्रायशः शतदेशानां प्रधानमन्त्रिभिः अन्यैः प्रतिनिधिभिश्च सह अन्ताराष्ट्रिय संघटनानां समावेशस्य संभावना दरीदृश्यते। उपवेशनम् इदं युक्रेनस्य उत्थापिताधारे एव भवति। अस्य द्विदिवसीयस्य उपवेशनस्य प्रमुखम् उद्देश्यं युक्रेन देशाय अन्ताराष्ट्रिय समर्थनस्य समर्जनम् अस्ति। सम्मेलने रूसदेशः नैव आमन्त्रितः। तत्रैव भारतम् एकमात्रं दक्षिणैशियायी देशः वर्तते यत् सम्मेलने भागं स्वीकरोति। भारतस्य प्रतिनिधित्वं विदेश मन्त्रालयस्य सचिवः पवन कपूरः विधास्यति। बिहार प्रदेशे अद्य राज्यस्तरीयः आम्र महोत्सवः आमोत्सव चतुर्विंशत्युत्तर द्विसहस्रम् इति आरब्धः। द्विदिवसीय महोत्सवस्य अस्य उद्घाटनं राज्यपालः राजेन्द्र विश्वनाथ आर्लेकरः राजभवन परिसरे कृतवान्। अवसरेऽस्मिन् श्री आर्लेकरः प्रोक्तवान् यत् बिहार प्रदेशे आम्रोत्पादकं विपणनस्य प्रसंस्करणस्य असीमिताः सम्भावनाः सन्ति। महोत्सवेऽस्मिन् सहस्रात् अधिकाः कृषकाः उद्यान कृषिक्षेत्रयोः विशेषज्ञाः वैज्ञानिकाश्च भागं गृह्णन्ति। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्या एफएम गोल्ड प्रवाहिकातः रविवासरे मध्याह्ने सार्धैकवादनतः भविष्यति। कृपया भवन्तः सर्वेऽपि अत्र शृण्वन्तु। उत्तरी सिक्किम प्रदेशे चतुर्दिनात् सततं जायमानया वृष्ट्या सामान्यं जीवनं प्रभावितं जातम्। अतिवृष्टेः अनेकेषु स्थानेषु भूस्खलनं जातम् अपि च मार्गाः भ्रष्टाः जाताः। आईसीसी इत्यस्यां पुरुषाणां 20-20 विश्वचषक क्रिकेट प्रतिस्पर्धायाम् अद्य सायं फ्लोरिडा नगरस्य सेंट्रल ब्रोवार्ड पार्क क्रीडांगणे अन्तिम समूहस्य स्पर्धायां भारतं कनाडा दलं सम्मुखी करिष्यति। इतः पूर्वं दक्षिण अफ्रीका दलेन नेपाल दलं केवलं एक धावनांकेन पराजितम् इति वार्ताः।